इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना एशिया महाद्वीपे माइक्रोसॉफ्ट संस्थायाः बृहत्तमस्य निवेशस्य स्वागतं कृतम्, तथा च कृत्रिम बुद्धिमत्तायाः क्षेत्रे भारतस्य नेतृत्वस्य विषये आशा प्रकटिता। माइक्रोसॉफ्ट इत्यस्य अध्यक्षस्य तथा सीईओ सत्या नडेला इत्यनेन सामाजिकान्तर्जालीये पटले लिखितस्य लेखस्य प्रत्युत्तरे श्रीमोदिना उक्तं यत् यदा एआई इत्यस्य विषये चर्चा भवति तदा भारतं प्रति विश्वम् आशान्वितः अस्ति। सः अवदत् यत् भारतं माइक्रोसॉफ्ट संस्थायाः बृहत्तमं निवेशस्थानं भवति। एतद्दृष्ट्वा सः प्रसन्नः अस्ति। अत्रान्तरे श्रीनडेलावर्यः भारतस्य एआई अवसरस्य विषये प्रेरकचर्चायाः कृते श्रीमोदिनं प्रति धन्यवादं प्रदत्तवान्। सामाजिकपटले श्रीनडेला अवदत् यत् माइक्रोसॉफ्ट भारतस्य महत्वाकांक्षां समर्थयितुं 17 अरब यूएस डॉलर तोप्यधिकानां निवेशं करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अवदत् यत् संसदि वन्दे मातरम् गीतस्योपरि चर्चया भावि सन्ततयः तस्य वास्तविकं महत्वं वैभवं च अवगन्तुं समर्थाः भविष्यन्ति। सः अवदत् यत् राष्ट्रगीतं वन्दे मातरम् देशभक्तेः त्यागस्य राष्ट्रियचेतनायाः च प्रतीकः अभवत्, येन स्वातन्त्र्य आन्दोलनस्य मार्गः प्रशस्तः अभवत्। ह्यः राज्यसभायां वन्दे मातरम् गीतस्य सार्धैकशततमे वार्षिकोत्सवे चर्चायाः आरम्भः कुर्वन् श्रीशाहः अवदत् यत् एषा अमरकृति भारतमातरम् प्रति कर्तव्यस्य भक्तेः च भावं प्रज्वालयति। सः अवदत् यत् स्वतन्त्रता संग्रामस्य समये वन्दे मातरम् आवश्यकम् आसीत्, अद्यत्वेऽपि अस्ति। यदा देशः 47-2000 वर्षे भारतं विकसितं भविष्यति, मन्त्रिणा उक्तं यत् स्वातन्त्र्ययोद्धारः प्रत्येकस्य समागमस्य आरम्भः वन्दे मातरम् गीतेन एव क्रियन्ते स्म। अद्य यदा वीरसैनिकाः सीमायां सर्वोच्चबलिदानं कुर्वन्ति तदा ते वन्दे मातरम् एव गायन्ति। केन्द्रीय नागरिकोड्डयन मन्त्रिणा श्री राममोहन नायडुना ह्यः प्रोक्तं यत् इण्डिगो संस्थायां सद्यः उत्पन्न समाह्वानानां निवारणं शीघ्रमेव भविष्यति, अपि च सुदृढ विमानयान व्यवस्थायाः निर्माणे पुनरुद्घाटने च प्रशासनं पूर्णतया प्रतिबद्धः अस्ति। लोकसभायां इण्डिगो संकट विषये मन्त्री अवदत् यत् इण्डिगो संस्था एव पूर्णरूपेण दोषी अस्ति। मन्त्रिणा निगदितं यत् डीजीसीए इत्यनेन विमान संस्थां प्रति निर्देशाः प्रदत्ताः यत् तस्य प्रतिवेदनस्य आधारेण एव कठोराचरणं भविष्यति। श्रीनायडू अवदत् यत् यावत् स्थितिः सामान्यतां न प्राप्नोति तावत् प्रशासनं पूर्णतया जागरूकः भूत्वा कार्यं करिष्यति।
इंडिगो की हालिया परिचालन विफलताओं के कारण उत्पन्न व्यवधान अब तेजी से स्थिर हो रहा है। इंडिगो की रोज की उड़ानों की संख्या में भारी गिरावट आई है और इसके बढ़ने की उम्मीद है। आज देश भर में अन्य सभी एयरलाइनें सुचारू रूप से चल रही हैं और हवाई अड्डों पर बिना किसी भीड़ या परेशानी के सामान्य स्थिति की सूचना मिल रही है। सामान वापसी और यात्री सहायता उपायों पर मंत्रालय निरंतर निगरानी रख रहा है और साथ ही जवाबदेही सुनिश्चित की जाएगी।
गोवा आरक्षि बलेन ह्यः दिल्लीनगरात् बर्ज बाय रोमियो लेन नाइट क्लब इत्यस्य चतुर्षु स्वामिषु एकम् अजय गुप्ता इत्यमुं निगडितम्। अवधेयं यत् शनिवासरे मध्यरात्रौ उत्तर गोवा राज्यस्य विनाशकारी अग्निकाण्डे 25 जनाः मृताः। राष्ट्रियान्वेषण अभिकरणेन एनआईए इत्यनेन गतमासस्य दिल्ली विस्फोट प्रकरणे एकम् अन्यम् प्रमुखम् अभियुक्तम् निगडितम्। एनआईए इत्यनेन उक्तं यत् जम्मू कश्मीर राज्यस्य बारामुला नगरस्य डॉ बिलाल नसीर मल्ला इत्येषः अस्मिन् प्रकरणे गृहीतः अष्टमः अभियुक्तः अस्ति। पुरुष क्रिकेट क्रीडायां ह्यः ओडिशा राज्यस्य कटक नगरस्य बारावती क्रीडांगणे 25-20 श्रृंखलायाः प्रथमायां क्रीडायां भारतीय दलेन दक्षिण अफ्रीका दलं 1100 धावनांकैः पराजितम् इति वार्ताः।